हरिम् वजन्त्यर्षो न यज्यते सन्धेनभिः कलशे सोमो अज्यते उद्वाच मीरयति हिन्वते मतीपोरुष्टुतस्य कदीचित्परिप्रियाः साकम् वदन्ति बहवो मनीषि न इन्द्रस्य सोमम् जठरे यदा गुः यदि वृजन्ति सुखभस्तयो नरः स नीलाभिर्दसभिः काम्यम् वधु परममानो अत्येदिगा अभिसूर्यस्य प्रियम् दुहितस्थिरो नवम् अन्वस्मै जोषमभरद्विनम् कृतः सन्धुजीभिश्वसृभिः क्षेति जामिभिः ऋधूतो अद्रेषुतो बर्हिषु प्रियः पतिर्गवाम् प्रतिभगिन्दुर्ऋद्विजाः पुरन्धिवाम् मनोषो लेग्नसाधनस्व च धिया पावते सोमा इन्द्रते भ्याम् चोदितो धारया सुतो रश्वसम् पावते सोमा इन्द्रते आप्राक्रतूम् समजैरध्वरे मदीर्वेर्न दृढश्चम्बो ओरास दद्धरीः हंसम् दोहन्ति स्तनयम् दमक्षीरम् कविम् कवयोपसो मनीषिणाः समीगावो मतयो यन्ति संयत ऋतस्य यो नासदने पुनर्भुवाः नाभा पृथिव्या धरुणो महो दिवो ओपामोर्मौ सिन्धुष्वन्दरुक्षितः इन्द्रस्य वज्रो वृषभो विभूव सुसोमो हृदेवते चारु मत्सरः सदोपावस्वपरिपार्थिवम् रजस्तोत्रे शिक्षन्नाधोन्मते च सुक्रतो मानो निर्भाग्वसूनः स्वादनस्पृशो रजम् विशङ्गम् बहुलम् वासीमहि आदून इन्दो सदधा त्वश्यम् सहस्रधातुपसुमद्धिरण्यवत् उपमास्व बृहती रेवतीरिषोधिस्तोत्रस्य पवमाननोगिः